इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः बलदेवानन्द सागरः। मुम्बय्याम् आजाद मैदान स्थले गतदिने संजातोपद्रव घटना सन्दर्भे अध्नावधि त्रयोविंशतिः जनाः धृताः। बीसीसीसी इति प्रसारण विषय परिदेवन परिषद महिलाः विरुध्य आचर्यमाणानां हिंस घटनानां वृत्त प्रसारणे समधिकावधानम् आधातुं दृश्य प्रसारण माध्यमानि अध्यार्थयत्। असम राज्य हिंसाचरणे विक्षुब्धेषु कोकराझार चिरांग धुबरी इति जनपदेषु स्थितिः परिष्कृता। ईरान देशे भूकम्पेषु अवरुद्धानां अन्वेषणं साम्प्रतम् अवरुद्धम्। अपि च जवाहरलाल नेहरू विश्वविद्यालयस्य वाग्वर्धिनी परिषदा नातिचिरं संस्कृत सप्ताहः समुपकल्पितः। मुम्बय्याम् आजाद मैदान स्थले गतदिने संजातोपद्रव घटना सन्दर्भे अध्नावधि त्रयोविंशतिः जनाः धृताः। नगरारक्षिणो न्यगदन् यत् धृताः सर्वेऽपि अद्य स्थानीय न्यायालये समुपस्थापिताः, अपि च मासेऽस्मिन् ऊनविंश दिनांकं यावत् रक्षीनिग्रहणे स्थातुम् एते न्यायालयेन आदिष्टाः सन्ति। तत्रान्तरे अपराधशाखायाः संयुक्तरक्षायुक्तः हिमांशु रॉयः अब्रवीत् यद् अपराधशाखया अन्वीक्षणकार्यम् आरब्धम्, अपि च पञ्चनामा इति प्रक्रिया पूर्णतां नीता अस्ति। मुम्बय्यां गतदिने संजात हिंस प्रदर्शनानन्तरं साम्प्रतं स्थितिः अत्र सामान्या प्रवर्तते। गतदिने हिंस प्रदर्शनेष् जनद्वयं मृतम्। प्रदर्शनानि एतानि असम राज्ये प्रतिवेशिने म्यामा देशे च दुरापन्न हिंस घटनाः विरोद्धुम् आयोजितानि आसन्। अत्र पञ्चपञ्चाशत् जनाः आहताः। अस्माकं वार्ताहरो रक्षायुक्तम् अरूप भटनागरं सन्दर्भयन् प्रावोचत् यद् अत्र होरावधावेव स्थितिः नियन्त्रितासीत्। मुख्यमन्त्री पृथ्वीराज चौहानः अपराध शाखामादिशत् यद् हिंस घटनाः एताः कस्यचित् षड्यन्त्रस्य अंगत्वेन वर्तन्तेन वा इति नूनम् अनया अन्वीक्षणीयम्। श्री चौहानः एतदपि न्यगादीत् यत् प्रशासनं गभीरतया प्रकरणमेनत् परिशीलयति, राज्ये सुरक्षा प्रबन्धाः दृढतराः विहिताः। बीसीसीसी इति प्रसारण विषय परिदेवन परिषत् महिलाः विरुध्य आचर्यमाणानां हिंस घटनानां वृत्त प्रसारणे समधिकावधानम् आधातुं दृश्य प्रसारण माध्यमानि अध्यार्थयत्। परिषदेषा स्वीय प्रथम वर्षावधिके स्वीय कार्यकाले अधिगतेषु परिदेवनेषु प्रायेण प्रतिशतं पञ्चाशन्मितानि परिदेवनानि अश्लील दृश्य सम्बद्धानि एव अध्यागच्छत्। असम राज्यस्य हिंसाचरणैः विक्षुब्धेषु कोकराझार चिरांग धुबरीति जनपदेषु स्थितिः परिष्कृता जायते। एतेषु जनपदेषु दिवसावधिके संचाररोधादेशे पृथक् कालांशेषु शैथिल्यं प्रवर्त्यते। पूर्वोपायत्वेन अत्र सुरक्षाबलानि सञ्चरन्ते। प्रशासनेन शताधिकानि शिविराणि पिहितानि सन्ति। ईरानदेशे तबरेज अहर नगरयोः उत्तर पश्चिमेषु क्षेत्रेषु गतदिने दुरापन्नेन भीतिकरेण भूकम्पेन मृतानां संख्या आहत्य सार्ध द्विशतमिता जाता। प्रायेण द्विसहस्रं जनाः आहताः वर्तन्ते। अत्र षट् ग्रामास्तु पूर्णतया प्रनष्टाः। तत्र भूकम्पेषु अवरुद्धानाम् अन्वेषणं साम्प्रतम् अवरुद्धमस्ति। जवाहरलाल नेहरू विश्वविद्यालयस्य वाग्वर्धिनी परिषदा नातिचिरं संस्कृत सप्ताह समुपकल्पितः। महता उत्साहेन आरब्धेऽस्मिन् संस्कृत सप्ताहे वृक्षारोपण, संस्कृत व्यवहार, संस्कृत दर्पण, चलच्चित्र प्रदर्शनं, सांस्कृतिक संध्यादयः कार्यक्रमाः सम्पन्नाः। विगते बुधवासरे कार्यक्रमाणां समापनावसरे कुशीलव इति नाट्य संस्थया वाग्वर्धिनी परिषदा च सम्भूय महाकवेः भासस्य ऊरुभंगम् इति रूपकस्य रंगमञ्चीया प्रस्तुतिः उपस्थापिता। जगति प्रवर्तमानां क्षुधा कुपोषण सम्बद्धां समस्यां समाधातुं लंडन नगरे अद्य विश्व सम्मेलनम् आरभते। ब्रिटेन देशस्य प्रधानमन्त्री डेविड कैमरूनः सम्मेलनस्य आतिथेयोऽस्ति। महिला बाल विकास मन्त्री कृष्णा तीरथ विश्व क्षुधा सम्मेलनेऽस्मिन् भारतीयं प्रतिनिधित्वं विददाति। लंडन नगरे अनुवर्तमाने ओलंपिक क्रीडा महोत्सवे अद्य मुक्त मल्ल स्पर्धायां 66 किलोग्राम भार वर्गे भारतस्य सुशील कुमारः उज्बेकिस्तान देशीयं इक्तियोर नवरूजोवं 3-1 पराजित्य उपान्त्य चक्रम् प्रविष्टः। इतः प्राक् सुशीलेन प्राक् पूर्वोपान्त्यचक्रे टर्की देशीयः रमजान शाहीना 3-1 पराजितः आसीत्। इति वार्ताः।